ततोवा प्राप्स्यसि स्वर्गम् जित्वावा भोक्ष्यसि महीम् तस्मा उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः सुख दुःखे समे कृत्वा लाभालाभौ जयाजयौ ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि येषा ते अभिहिता सांख्ये बुद्धिः योगे तु इमां शृणु बुद्ध्या युक्तो यया पार्थ कर्म बन्धं प्रहास्यसि स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् व्यवसायात्मिका बुद्धिः ये के अविपश्चितः वेदवादरताः पार्थ नान्यदस्तीति वादिनः कामात्मानः स्वर्गपराः जन्म कर्म फलप्रदा क्रियाविशेष बहुलां भोगैश्वर्यगतिं प्रति व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ಸತ್ವಸ್ಥೋ ನಿರ್ಯೋಗಕ್ಷೇಮ ಆತ್ಮವಾನ್.
Thank you.
సమాధం అచలా బుద్ధి తదా యోగం అవాప్స్యసి. అర్జున ఉవాచ స్థిత ప్రజ్ఞస్య కా భాషా సమాధిస్థస్య కేశవా స్థితధీః కిం ప్రభాషేత కిమాసీత వ్రజేత కిం. భగవానువాచ ప్రజహాతి యదా కామాన్ సర్వాన్ పార్థ మనోగతాన్ ఆత్మన్యేవాత్మనా తుష్టః స్థిత ప్రజ్ఞః తదోచ్యతే. యస్సర్వత్రానభిస్నేహః తత్ప్రాప్య శుభాశుభం నాభినందతి న ద్వేష్టి తస్య ప్రజ్ఞా ప్రతిష్ఠితా. రసవర్జ్యం రసోప్యస్య పరం దృష్ట్వా నివర్తతే. यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता। ध्यायतो विषयान् पुंसः संगस्तेषु पजायते, संगात् संजायते कामः, कामात् क्रोधो विजायते। सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशो, बुद्धिनाशात् प्रणश्यति। रागद्वेष वियुक्तैस्तु विषयान् इन्द्रियैश्चरम्, आत्मवश्यैः विधेयात्मा प्रसादम् अधिगच्छति। प्रसादे सर्वदुःखानां हानिरस्योपजायते, प्रसन्नचेतसोऽख्याशु बुद्धिः पर्यवतिष्ठते। युक्तस्य भावना न चाभावयतः शान्तिः, अशान्तस्य कुतः सुखम्। यन्मनोनुविधीयते तदस्य हरति प्रज्ञा, वायुर्नावमिवाम्भसि। तस्यां जागर्ति संयमी, यस्य जाग्रति भूतानि सानिश पश्यतो मुने आपूर्यमाणम् अचल प्रतिष्ठम् समुद्रमापः प्रविशन्ति यद्वत् तद्वत्कावाः यम् प्रविशन्ति सर्वे सशान्तिम् आप्नोति न निर्ममो निरहंकारः सशान्तिम् अधिगच्छति
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः।